श्रोतृवृन्दाः संस्कृत साप्ताहिकीति विशिष्टे संस्कृत कार्यक्रमे भवतां हार्दं स्वागतं व्याहरामि। एषा अहं निधिः तिवारी। कार्यक्रमस्यास्य उद्घोषिका नमो नमः श्रोतृभ्यः। श्रोतारः सुभाषितं स्वीयत्वाय आन्तर्निहित नैतिकत्वाय परामर्शाय सांसारिक ज्ञानाय धार्मिक धर्माय मार्गदर्शनाय च अभिज्ञायते। ज्ञानाभिवर्धनाय शृणुमस्तावत् सुभाषितमेकं यद्धि प्रस्तूयते अस्मदीयया सहयोगिनया साधना शर्मणा।
पूजनीयाः महाभागाः पुण्याश्च गृहदीप्तयः स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः।
श्रोत्री समूहाः देवानां स्तुतिः परमकल्याणकारिणी भवतीति यथा भवन्तः जानन्ति। मनोरञ्जनमेकं देवस्तुतिपरकं प्रसंगं प्रस्तौति अस्मदीयः सहयोगी नरेन्द्रदत्त सीमवालः। आयान्तु शृण्मः।
नागेन्द्रहाराय त्रिलोचनाय अस्मांगरागाय महेश्वराय नागेन्द्रहाराय त्रिलोचनाय अस्मांगरागाय महेश्वराय नित्याय शुद्धाय दिगं बराय तस्मै नकाराय नमः शिवाय।
प्रिय मित्राणि, अप्राप्य सूचनानां विषये समुपलब्ध वार्तानां महत्वम् अधिकं भवति। देश विदेशयोः आर्थिक सामाजिक मनोरञ्जन इत्येतासां प्रमुख वार्तानां विषये समुचित पद्धत्या सह प्रतिपादयति अस्माकं सहयोगिनी सुषमा कुमारी।
प्रधानमन्त्रिणा नरेन्द्रमोदिना उत्तराखण्डे अर्थव्यवस्थां सुदृढीकर्तुं वृत्त्यवसराणि च वर्धयितुम् अशेषदेशे पर्यटनं वर्धनार्थं प्रबलं प्रतिपादितम्। सूचना प्रविधि मन्त्रिणा अश्विनी वैष्णवेन प्रोक्तं यत् भारत AI इत्यस्मिन् क्षेत्रे व्यावहारिक प्रविधि विधि सम्बद्ध दृष्टिकोणं परिपालयति। भारतीय विदेश मन्त्रिणा सुब्रह्मण्यम जयशंकरेण ब्रिटेन यात्रावधौ पृथक्तावादिनां सुरक्षा उल्लंघनं विनिन्दितम्। ब्रिटिश प्रशासनेन राजनैतिक उत्तरदायित्वं निभालन प्रतिज्ञा पुनः व्याहृता। उत्तरप्रदेश पंजाब आरक्षिणां संयुक्त अभियाने पाकिस्तानस्य ISI इति सम्पृक्त बब्बर खालसा आतंकी गुल्मस्य अन्ताराष्ट्रिय आतंकी एकः धृतः। हैदराबादे इण्डियन्स सुपर लीग पादकन्दुक प्रतिस्पर्धा सञ्जाता।
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते। प्रियाः ज्ञानपिपासवः श्रोतृवृन्दाः, अद्य ज्ञानविज्ञान प्रभागे एतस्मिन् महामहोपाध्याय सम्मानेन राष्ट्रपति सम्मानेन साहित्याकादमी पुरस्कारेण च अनेकैः अलंकारैः सम्मानितैः विद्वद्भिः डॉक्टर मिथिल प्रसाद त्रिपाठी महाभागैः सह संवादं साधयति एतस्मिन् प्रभागे अस्मदीया सहभागिनी निधिः झा। ज्ञानप्रवाहे आगच्छन्तु, मिलित्वा निमज्जा भवामो वयम्।
अभिवादये। अद्य ज्ञान विज्ञान प्रभागे उपतिष्ठन्ते मिथिला प्रसाद त्रिपाठिनः। साहित्यः अपरः पर्यायभूताः भवन्तः। साहित्यं प्रति भवदीयं यद् योगदानं वर्तते तत्तु निश्चप्रचं श्लाघनीयम्। साहित्य अकादमी पुरस्कारेण भवन्तः सम्मानिताः। भवताम् आकाशवाण्यां प्रणमाञ्जलिं वितीर्य इयमहं निधिः झाः स्वागतं व्याचष्टे। महाभागाः, भवद्भिः राघवीयं नामधेयं महाकाव्यं विरचितम्। किमिदं राघवीयं? किमत्र वर्णितं? के विचाराः अत्र प्रमुखाः?
रघुवंशे जनित्वा राघवो भवत् कूपी, तथैव रघुवंशे जायमानः श्रीरामः राघवः। राघवस्य विषये यत्किमपि चरित्रविषये यत्किमपि टङ्कितम् उट्टङ्कितं भवति तत्सर्वं राघवीयं भवति, राघवसम्बन्धिनं राघवीयं भवति। रामः यद्यपि मनुष्यरूपेण जातः, परन्तु आदिकविर्वाल्मीकिः ब्रूते यज्ञे विष्णुः सनातनः। यद्यपि श्रीरामस्य चरितम् आचरितम् एतादृशम् आसीत् यस्य अनुसरणमात्रेण कोऽपि जनः भगवत्त्वं प्राप्नोति, देवत्वं प्राप्नोति। अयं तु मनुष्यरूपेण मर्यादापुरुषोत्तमः इति जनैः ख्यातः अभूत्, परन्तु अयं रामः वाल्मीकेः रामः अस्ति इति तु कथने वाल्मीकिवचनानि स्मृतानि भवन्ति। यथा इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः इति कथनात् जनैः श्रुतोऽयं रामः आसीत् न तु वेदैः श्रुतः। अत एव जनेषु रामस्य स्थितिः पूर्वतः एव आसीत्, लोकभाषायां श्रीरामः पूर्वतः एव आसीत्। तदा तपःस्वाध्यायनिरतं तपस्वी वाग्मिदामरं नारदः कोऽपि संवाददातृरूपेण समागतः, वाल्मीके सह सम्बन्धः जातः। वाल्मीकिः तु पृथिव्यां ये जनाः निवसन्ति तेषां प्रतिनिधिभूतः, जनानाम् उन्नत्यै लोकानां चरित्रनिर्माणाय कोऽपि अस्ति वा, अयं प्रश्नः आसीत्। साम्प्रतं कथयत् कोऽन्वस्मिन् साम्प्रतं लोके तदानीन्तने समये कः आसीत् एतादृशः। तदा तु नारदः उक्तवान् एते गुणाः तु बहुत्र न भवन्ति, न मिलन्ति जनाः एतादृशाः, परन्तु केचन गुणाः भवन्ति। दशरथस्य पुत्रः श्रीरामः अस्ति, परन्तु तत्रैव सः निवेदयति जनेषु रामस्य स्थितिः आसीत्, लोकभाषासु उपनिबद्धानि यानि गीतानि भवन्ति तत्र श्रीरामः आसीत्, तानि गीतानि इदानीं प्रचलन्ति। अत श्रीमद्भागवतेऽपि अधुना इति शब्दस्य प्रयोगः कृतः रामस्य कृते, रामकथा प्रसङ्गे अद्यापि इदानीमपि गृहे गृहे जने जने रामेव अस्ति, रामेव जनित्वा रामः एव उपनीतो भवति, रामः एव विवाहितो भवति, गीतेषु तस्य प्राधान्यं वर्तते। अत एव राघवीयं नाम किम् इति प्रश्ने राघवीयं सर्वत्र समाजे अखिले भारते वर्षे सनातनसंस्कृत्यां राम एव राजते तराम्। अथ च अग्रिमः किमस्ति,
के विचाराः अत्र प्रमुखाः?
रामः एतादृशः आसीत् यः चक्रवर्ती राजस्य पुत्रः आसीत्, परन्तु तत्र अयोध्यायां राज्यं न स्वीचकार। किमर्थं? तत्र वनवासनिषेण असौ गृहात् बहिर्गतः। पूर्वं तु विश्वामित्रेण सार्धं गतवान्, उत्तरभारतस्य यात्रां कृतवान्, अनन्तरं विवाहितो भूत्वा सः वनं गतवान्। केनापि व्याजेन वनस्य गमनं रामस्य जातं। तदा मार्गे ग्रामे याः मिलन्ति स्त्रियः, ताः अथ च ये वञ्चिताः जनाः मिलन्ति, ये शोषिताः जनाः मिलन्ति, तेषां का कथा, तैः सह कथं निवसनं भवेत् इति रामेण अङ्गीकृत्वा तत्र चित्रकूटगिरौ निवासं व्यधात्। तत्र एकतः तु ऋषीणां सङ्गमः आसीत्, अन्यत्र देवानां सङ्गमः भवति स्म, अन्यत्र तत्रत्याः ये वनवासिनः कोल्लाः किराताः भिल्लाः सन्ति ते सर्वे तत्र आगच्छन्ति स्म। तत्र सममेव देवैः सूचितो असौ रामः, ऋषिभिः तावत् नोदितोऽसौ रामः, वनवासिभिः प्रार्थितोऽसौ रामः कस्य कृते, भारतीयां संस्कृतिं रक्षितुम्। यतोहि चित्रकूट समीपे विराधकुण्डम् अस्ति, तत्रापि रावणीया सेना आसीत्। बक्सर क्षेत्रे अपि विश्वामित्रस्य यज्ञे यदा गतवान् तदा तु मारीच सुबाहु इत्यादिकानां स्थितिरासीत्। एतेन एतत् विज्ञायते यत् तदानीं रामस्य आवश्यकता आसीत्, कस्यापि भारतीय युवकस्य आवश्यकता आसीत् यः संस्कृतेः रक्षणार्थम् एतेषां संस्कृतदूषकाणां कृते किमपि उपायं करोतु। अत एव श्रीरामः चित्रकूटं गत्वा तदनन्तरं चलित्वा ऋषीणां गृहं गृहम् आश्रमम् आश्रमं गत्वा गत्वा तैः सह सम्मिल्य यानि दुःखान्यासन् तेषां सर्वेषां दुःखानां निरसनार्थं तावत् राक्षसानां संहारः शमनः। न कोऽपि आसीत् रामेण सह, केवलं सीता देवी आसीत्, अथ च लक्ष्मणः आसीत्, अन्ये तु वानराः आसन्, वृक्षाः आसन्। तैः सह सम्मिल्यापि तादृग्विधस्य रावणसदृशस्य विश्वविजयिनः दुष्कृत्यानि यानि आसन् तेषां सर्वेषां निरसनं सः अकरोत्। अथ किम्, केनापि ब्याजेन तस्य पत्नी सीता चोरिता रावणेन। परन्तु रावणस्य निरसनार्थम् एकाकी रामः यदि भगवान् न मन्ये तदा एकाकी रामः अनेकैः जनैः सह सम्मिल्य वानरैः सह सम्मिल्य अर्धविकसितैः नरैः सह सम्मिल्य तेषां संघटनं कृत्वा संघटनेन विना कार्यस्य सिद्धिर्न भवति संघटनं कृत्वा सः समुद्रस्य समीपं गतवान् अनन्तरं लंकापुरीं गत्वा सर्वं सम्पादितम्। अयमेव रामः अस्ति यस्य माध्यमेन भारतीयाः जनाः राष्ट्रसंघटन शालिनः तथा राष्ट्रनिष्ठाः भवितुं शक्यन्ते। अतएव रामस्य विषये एतादृशाः ये विचाराः सन्ति ते मनमनसि उदिताः स्फुरिताः बारं बारं उद्वेलितुं मां प्रावोधयन्। अतएव अस्माकं सरस्वती प्रसन्ना जाता तदा राघवीयम् इति नाम्ना पद्यानि निःसृतानि जातानि। अनेन क्रमेण न जाने अस्माकं तु भगवान् एव अस्ति तेषां कृपया सीतादेव्याः वा कृपया सरस्वतीदेव्याः वा कृपया राघवीयम् इति महाकाव्यं सम्पन्नम्।
बहु समीचीनम् आचार्याः। श्रीरामस्य विषये इदं मिथ्यमिति निर्णयः कष्टसाध्यः यतोहि सः मर्यादा पुरुषोत्तमः। अतः अत्र प्रश्नः जागर्ति श्रीरामस्य व्याख्याने के क्लेशाः काः कठिनताश्च भवद्भिः अनुभूताः कथं समाहिताः?
न कापि कठिनता मया अनुभूता। रामस्य चरित्र स्मरणेनैव रामत्वं जागर्ति। रामस्य अनुजस्य कृते वरदान मिशेण यत् जातं तत् कुत्रापि न भविष्यति। रामस्य चरित्रं दृष्ट्वा मात्रा सह पित्रा सह वाल्मीकि रामायणे दशरथः रामं प्रति किमपि नाब्रवीत्। तुलसीदासस्य रामायणेऽपि रामस्य वनं प्रति किमपि नाब्रवीत्। सा कैकेयी उक्तवती पितुर्दशमुना माता गौरवेणातिरिच्यते अभिमाता ततोऽपि अधिका। अतएव विमातुः संकेतं स्वीकृत्य रामः स्वीकृतवान् इदानीमेव अहं वनं गमिष्यामि धिङ्मां नार्हसे देवी देवी मुझे एवं मां कथयितुं प्रतिबोधयितुं नार्हसि योग्या नास्ति भवति एवं अहं हि वचनात् राज्ञः पतेयम् अपि पावके भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चारणवे रामो द्विर्नाभिभासते इति उक्त्वा सः वनाय प्रस्थितः। तेन सार्धं तस्य पत्नी भगवती सीता धरित्याः पुत्री रामः यज्ञस्य पुत्रः आसीत् सीता धरित्याः पुत्री आसीत् अनयोः मेलनं जातं। धरित्री धरित्र्याः कन्याः आसीत् सीता। या कन्या भवति तस्य संवेदना उभयोः कुलयोः कृते भवति। धरित्र्याः कुलं किं धरित्र्यां ये जनाः निवसन्ति ये श्वसन्ति ये यत्र भवन्ति ते सर्वे तस्य भ्रातृवर्गेषु सन्ति भ्रातरः सन्ति तेषां संवेदना कीदृशी भवेत् इति सीता जानाति। तर्हि सीता लाङ्गलरेखा स्यात्। कृषेरधिष्ठात्री देवता अपि आसीत् सा सीता यदि वनं न यास्यति तदानीं तदा रामस्य कृते प्रेरणं कथं भविष्यति। सीतया सह वनगमनेनैव रामः रामत्वं प्राप्तवान्। यदि सीतायाः चरित्रम् अतीव हि वाल्मीकि कथयति आदिकाव्यमिदं कृष्णं सीतायाः चरितं महत् एतद् रामायणं सीतायाः चरितम् एव अस्ति। यतो हि पूर्वं तु जनकपुरं गत्वा अनन्तरम् अयोध्यामागत्य अथानन्तरं वनवासी वनं वनं परिभ्रमन् भ्रामन् भ्रामं भ्रामं वनानि श्रीरामः तत् भारतीयसंस्कृतेः यानि आचरणानि कृतवान् तानि सर्वाणि मनुष्यत्वप्राप्तये मानवानां कृते मनुष्यतां प्राप्तये सिद्धाः सन्ति।
बहु समीचीनम् आचार्याः। अस्मिन्नेव क्रमे अन्तिमोऽयं प्रश्नः रामायणकथामादृत्य बहवो हि विद्वज्जनाः ग्रन्थं व्यालेखिषुः तत्र भवतामयं ग्रन्थः कथं विरलतरः विशिष्टश्च?
मम रावणीयम् इति महाकाव्ये बहुत्र परिवर्तनम् अस्ति। अत्र मन्थरायाः प्रसङ्गः नास्ति यतोहि यदा दशरथः आगत्य कैकेयी निवेदितवान् यत् श्वः रामस्य भविष्यति राज्ये युवराजपदे अभिषेचनम् कैकेयी बहु प्रसन्ना जाता। अनन्तरं दशरथः सन्ध्यादिकं कर्तुं गतवान्। पुनरागत्य यदा दृष्टवान् तदा तु कैकेयी कुपिता आसीत्। कैकेय्याः मनसि ये विचाराः आसन् तान् विचारान् अहं स्वयमेव प्रकटितवान्। कैकेय्याः चिन्तनमासीत् यदि रामो अत्र राजा भविष्यति तदा रावणादीनां किं भविष्यति। राष्ट्रस्य रक्षायै एतेषां सर्वेषां संस्कृतदूषकानां राष्ट्रापघातिकानां विनाश आवश्यकम् अस्ति। अद्यतने युगे ये राजपदवीं प्राप्तुम् इच्छन्ति तदा तु पूर्वं गत्वा समाजं गत्वा राज्ये ये जनाः सन्ति तैः सह सम्मिल्य किमपि न बोधनं कुर्वन्ति, अत एव असफला भवन्ति। रामस्य एतादृशी शिक्षा वर्तते, पूर्वं तैः सह सम्पर्कः भवेत्, तेषां कष्टस्य अवगमनं भवेत्, तेषां कष्टस्य विनाशः भवेत्, अनन्तरं राज्यस्थापना भवेत्, तत्तावत् साफल्यं भविष्यति।
सत्यमाचार्याः विद्वद्वाणीम् अवधार्य आनन्दिताः हर्षिताः स्मः। भवद्भ्यः स्वामूल्य समय प्रदानाय धन्यवादाः।
जयतु श्रीराम।
जयतु रामः।
प्रियाः बालाः, भवतां कृते साम्प्रतम् अस्माकं सहयोगिना पुनीत त्रिपाठिना किञ्च प्रस्तूयते। आयान्तु बालवल्लरी प्रभागं मिलित्वा शोष्यामः वयम्।
प्रियाः बालाः, अद्य अहं बुद्धे सर्वार्थ साधिका इति एकां कथां श्रावयामि। एकदा स्वर्गे स्वं अधिकारं कर्तुं देवाः दानवाः च संघर्षं कर्तुं प्रवृत्ताः। विष्णुः तान् पृथक् पृथक् तेषां हितम् अहितं च प्राबोधयत्। परन्तु यदा अनुकूलः परिणामः कश्चित् नैव निःसृतः तदा एतत् कृते प्रतिस्पर्धाम् एकाम् आयोजयितुं विष्णुः स्वाशयं प्रकाशितवान्। सः भोजनप्रतियोगिताम् आयोजयत्। तत्र देवान् दानवान् च भोजनाय निमन्त्रितवान्। कथितवान् च यत् ये अत्र विजेष्यन्ते ते स्वर्गे अधिकारं करिष्यन्ति, किन्तु भोजनं कर्तुं कश्चित् अपि स्वकीयं कर्पूरं तिरश्चीनं न कुर्यात्। इदम् असम्भवमासीत्। हस्तेन मुखं यावत् भोजनं प्रापयितुं कर्पूरस्य तिरश्चीनीकरणं तु आवश्यकम् एव अवर्तत्। दानवाः पशुवत् यत्र भोजनं कृत्वा आत्मनः बुद्धेः मन्दतां प्रकाशितवन्तः, तत्रैव देवाः परस्परं सम्मुखे उपविश्य स्वहस्तेन अन्यं भोजयन्तः, अन्यहस्तेन च स्वयं भुञ्जानः स्वबुद्धिकौशलम् एव प्रदर्शितवन्तः। एवं भोजनकरणे कर्पूरस्य तिरश्चीनता अपेक्षिता नैव आसीत्। विष्णुः देवान् एव प्रतियोगितायां विजितान् अघोषयत्। ततः देवाः एव स्वर्गे अधिकारिणः सन्ति इति उक्तमपि।
बालवल्लरी प्रभागस्य अनन्तरम् अधुना एकभारतं श्रेष्ठभारतम् इत्याख्ये प्रभागे मुदिता वेतालः प्रस्तौति नानाविधभाषायां बद्धानि वाक्यानि, यानि च एकं भारतम् इत्येनं मन्त्रं साकारी कुर्वन्ति इति।
प्रथमं वाक्यमस्ति, उपनिषदः हिन्दूधर्मस्य महत्वपूर्णाः श्रुतिधर्मग्रन्थाः सन्ति। पहला वाक्य है, उपनिषद हिंदू धर्म के महत्वपूर्ण श्रुति ग्रंथ हैं। कुमाऊनी में उपनिषद हिंदू धर्मक बहुते महत्वपूर्ण श्रुति धर्म ग्रंथ छे। द्वितीय वाक्यम अस्ति, उपनिषदां संख्या अष्टोत्तरैक शत प्राया अस्ति। दूसरा वाक्य है, उपनिषदों की संख्या लगभग 108 है। कुमाऊनी में उपनिषद लगभग 108 छे। तृतीयं वाक्यम् अस्ति, मुख्याः उपनिषदः त्रयोदश सन्ति। तीसरा वाक्य है, मुख्य उपनिषद 13 हैं। कुमाऊनी में मुख्य उपनिषद 13 हैं। चतुर्थं वाक्यम् अस्ति, उपनिषदः संस्कृते उपनिबद्धाः सन्ति। चौथा वाक्य है, उपनिषद संस्कृत में लिखे गए हैं। कुमाऊनी में उपनिषद संस्कृत में लिखी गई। धन्यवादाः।
प्रिय मित्राणि, विविध प्रभाग युतः एषः संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमः अधुना सम्पद्यते। आगामी रविवासरे पुनरेकदा अस्मिन्नेव समये उपस्थिता भविष्यामि नूतनं च अंकं समादाय। तावत्पर्यन्तं भवन्तः सर्वे nsdsanskrit@gmail.com इत्यत्र स्वविचारान् सम्प्रेष्य अस्मान् प्रेरयन्तु कृपया। शुभं भूयात्। नमो नमः।